ओमथ श्री रुद्र प्रश्न ओम गणनांत्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमं ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आनशृण्वन् हूतिभिः सीदसादनम् ॐ श्रीमहागणपतये नमः। ॐ महागणपतये नमः। ॐ शं च मे मयश्च मे प्रियञ्च मेऽनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रञ्च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश्च मे ऋजश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञातृं च मे सूश्च मे भ्रसूश्च मे क्षीरं च मे लयश्च मृतं च मे मृतं च मे यक्ष्मं च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुखं च मे शयनं च मे सूषा च मे सुदिनं च मे। ॐ शान्ति शान्ति शान्तिः। ॐ नमो भगवते रुद्राय। ॐ नमस्ते रुद्रमन्यवहुतोत इषवे नमः। नमस्ते अस्तु धन्वने बाहुभ्याम् उतते नमः। यात इषुः शिवतमा शिवं बभूवते धनुः। शिवा शरव्यायात्तपतयानो रुद्रमृडय। या ते रुद्रशिवात्तनूरघोरापापकाशिनी तया नस्तनुभाषन्तमया गिरिशन्ताभिचाकशीः। यामिषुङ्गिरिशन्तहस्ते बिभर्ष्यस्तवे शिवाङ्गिरिधृतां कुरु माहिगंसीः पुरुषं जगत् शिवेन वचसा त्वा गिरिशाच्छा वदामसि। यथा नः सर्वमिज्जगदयक्ष्मगं सुमना असति अध्यवोचदधिवक्ता प्रथमो दैव्योऽभिषक् अहीग्यश्च सर्वा आञ्जम्भयत्सर्वाश्च यातु धान्यः असौव्यस्ताम्रो अरुणहुत बभ्रुः सुमङ्गलः। ये चेमागं रुद्रा अभितो दिक्षुश्रिता सहस्रशो वैशागं हेडयीमहे। असौ यो वसर्पति नीलग्रीवो विलोहितः उतैनं गोपा अदृशन्नदृशन्नुदहार्यः। उतैनो विश्वाभूतानि सदृष्टो मृडयादिनः। नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीरुषे अथो ये अस्य सत्त्वानो हन्तेभ्यो करन्नमः प्रमुञ्च धन्वनस्त्वमुभयो रार्त्नियोर्ज्याम् याश्च ते हस्त इषवः पराता भगवो वप अवतत्य धनुस्त्वगं सहस्राक्षसतेषुधे निशीर्य शल्यानां मुखा शिवो नः सुमना भव विज्यं धनुःखभर्दिनो विशल्यो बाणवागम् उत अनेशन्नश्येषव आभुरस्य निसङ्गतिः या ते हेतिर्मेढुष्टमहस्ते बभूवते धनुः तयास्मान् विश्वतस्त्वमयक्ष्मया परिभुज नमस्ते हस्त्वायुधायानाथताय धृष्णवे उभाभ्यां हुतते नमो बाहुभ्यां तव धन्वने परिते धन्वनो हेतिरस्मान् व्रणक्तु विश्वतः अथो य इषुधिस्थवारे हस्मन्निधे हितम् प्रथमानुवाकः रुद्र प्रथमानुवाकः सम्पूर्णम्।